ब्रह्मा गुरु विष्णु गुरु देवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणं तत्र आत्मा इति द्विविधा इति जानीमः तत्र परमात्मा अपि तत्र जीवात्मा इति गतवर्गे तत्र परमात्मा नाम ईश्वरः तस्य विषये वयं पठितवन्तः किञ्चित् तस्मिन् विषये पुनस्मरणं कृत्वा अग्रे सरामः तर्हि तत्र अस्तु तर्हि तत्र हा तर्हि तत्र नीता भगिनी तत्र वयं तत्र आकाशः अस्ति इति कथं ज्ञातवन्तः तत्र कथं साधितवन्तः पूर्वं
शब्दस्य ज्ञानं श्रोत्रेन्द्रियेण भवति किन्तु तत्र आश्रयेण विना न भवितुम् अर्हति अतः तत्र शब्दगुणकम् आकाशः इति ज्ञानं वयम् अनुमानेन कल्पितुं शक्नुमः आश्रयत्वेन आकाशः अस्ति तत्र
समीचीनम् अपि आश्रय तत्र आकाशस्य प्रत्यक्षज्ञानम् अस्ति अथवा नास्ति
प्रत्यक्षज्ञानं नास्ति अनुमानेन एव साध्यते
अनुमानेन अतः एव अनुमानेन तत्र तस्य साधनं भवति समीचीनं नाम यत्र रूपम् अस्ति रूपमिति गुणः तत्र यदा रूपनीलघटः अस्ति चेत् तत्र नीलरूपस्य ग्रहणमपि चक्षुषा भवति नीलरूपस्य आश्रयः यः घटः तस्य ज्ञानमपि चक्षुषा भवति अतः तत्र आश्रयस्य प्रत्यक्षज्ञानं वर्तते किन्तु शब्दस्य विषये आश्रयः अस्ति इति चिन्तनं किन्तु आश्रयस्य प्रत्यक्षज्ञानं न भवति समीचीनं भगिनि हा उत्तमम् अस्तु इदानीं तत्र अग्रे तत्र मृणदिनी भगिनी तत्र वायुविषये तत्र वायुः अस्ति इति वायु इति द्रव्यमस्ति इति कथं साधितवन्तः
रूपरहितस्पर्शवान् वायुः तर्हि
तत्र कस्य आधारेण वायुः अस्ति इति साधितवन्तः
स्पर्शः अनुभूयते
स्पर्शः इति गुणं स्पर्शः इति गुणं विजातीयस्पर्श नाम यः स्पर्शः पृथिव्यां नास्ति जले नास्ति तेजसि तत्रपि नास्ति तादृशः नाम तत्र स्पर्शः यः अस्ति विजातीयस्पर्शः रूपरहितत्वमपि स्पर्शः अपि अस्ति इति तस्य आश्रयः भवेत् इति कृत्वा तत्र वायुः इति द्रव्यम् अस्ति इति साधितवान् तत्र वायुः प्रत्यक्षज्ञानं वा अथवा अनुमानज्ञानं वा वायुः तत्र केनापि प्रत्यक्षं भवति चेत् तत्र अनुमानस्य आवश्यकता नास्ति खलु अतः तत्र प्रत्यक्षज्ञानं नास्ति यथा आकाश सन्दर्भे तथैव अत्रापि वायुसन्दर्भे अपि तत्र प्रत्यक्षज्ञानं नास्ति किन्तु अनुमानेन तत्र स्पर्शः अस्ति गुणः अस्ति गुणस्य द्रव्यम् आश्रयः भवेत् इति कृत्वा वायुः अपि तत्र अतिरिक्तद्रव्यं भवेत् इति साधितवन्तः समीचीनम् अस्तु अग्रे तत्र इदानीं तत्र ईश्वरः तत्र अस्ति इति विषये तत्र शोभा भगिनी तत्र कार्यं प्रति तत्र कीदृशी स्थितिः अस्ति नाम कारणसामग्रीविषये कार्यमस्ति
तत्र यथा तत्र
घटः इति कार्यं
घटः पटः इति उदाहरणं दृष्टवन्तः तत्र यथा कुल सचेतनकुलालेन विना घटः न उत्पद्यते यतोहि तत्र दण्डचक्रादि कारण सामग्र्यः उपस्थिताः भवन्ति अपि च तन्तुवायेन विना सचेतन तन्तुवायनविना पटः न भवति, यतोहि तत्रापि उपकरणानि सन्ति. तथा एव तत्र कोऽपि सचेतनः भवेत् कार्य उत्पत्त्याः कृते इति दृष्ट्वा इदानीं तत्र वयं सर्वत्र पश्यामः यथा
द्रुणौक नियमः कः तत्र कार्यस्य विषये नियमः कः नाम कार्य कारणसामग्र्यां
सचेतनः कोऽपि आवश्यकः इति
आवश्यकः अस्ति इति
चेतनः आवश्यकः
आवश्यकः इति आगतः समीचीनं
नियमः आगतः.
तत्र सचेतनः कः घट घटकार्ये
घट उत्पत्तेः विषये सचेतनः कुलः, पट उत्पत्तेः विषये सचेतनः तन्तुवायः
तन्तुवायः
तथा
वयं
अपि च तत्र तथा एव तत्र वयं महाभक्तिगोलं पश्यामः.
ध्वनिः सम्यक् नास्ति भगिनि.
ओ क्षमता महोदय. अस्तु इदानीं श्रूयते वा?
श्रूयते किन्तु मध्ये किञ्चित् वदतु.
इदानीमपि अस्तु. तथा एव यथा वयं महापृथ्वीगोलं पश्यामः, महज्जलं पश्यामः, सूर्यादि तेजांसि सूर्यम् इति पश्यामः, तत्र वयं तु न कृतवन्तः, कुलालः न कृतवान्, वयम् अल्पज्ञाः तु तत्र सचेतनाः भूत्वा किमपि कार्यं न कृतवन्तः. तर्हि कोऽपि तत्र भवेत् यः सचेतनः चेतनः अस्ति यः एतानि कार्याणि कृतवान् इति तेषाम् उत्पत्तेः तस्य आवश्यकता आसीत् इति. अतः तत्र अनुमानेन सः ईश्वरः. अपि च यतोहि तस्य तुलनम् अल्पज्ञानां विषये कर्तुं न शक्नुमः इति कृत्वा यतो तत् यथा तत्र वयं सर्वे अपि च कुलालः वा तन्तुवायः वा सः तु अल्पज्ञः न भवेत्. अतः तत्र तेषु अन्यतमः तु नास्ति, अतः सः सर्वज्ञः इति अपि दृष्टवन्तः. तस्य इत्युक्ते वैलक्षण्यम् अल्पज्ञानेषु न भवेत् इति, तत्र सः अल्पज्ञः सर्वज्ञः इति अपि दृष्टवन्तः.
अस्तु समीचीनं भगिनि. तर्हि तत्र कोऽपि चेतनः अस्ति यः यद्यद् वयं पश्यामः लोके तस्य कर्ता कोऽपि चेतनः कर्ता भवेत्, अपि वा कर्ता तु वयं अथवा अल्पज्ञः न भवितुम् अर्हति इति कृत्वा तत्र अन्यः कोऽपि भवेत् यः अस्मादीनां तत्र अस्मादृशाः नास्ति तादृशः भवेत् येन तत्र एतत् सर्वं निर्मितम् अस्ति कृतमस्ति. अपि तत्र अनुमानस्तरे तत्र लाघवार्थं तत्र किं चिन्तनं भवति तत्र विमला भगिनी? अनुमानेन यद् नूतनपदार्थस्य तत्र साधनं कुर्मः अनुमानेन, तदा तत्र लाघवं किं भवति? एकत्वम् अथवा
नित्यत्वम् अपि च एकत्वम् इति.
नित्यत्वमपि एकत्वं लाघवं भवति अपि अनेकत्वाय वयं किम् अपेक्षितमस्ति?
बहु किमपि वक्तव्यम्. अवयवाः अपि अपेक्षिताः. वयं द्रष्टुं न शक्नुमः.
अतः तत्र वयं किं कुर्मः, तत्र अनेकत्वं केवलं यदा कापि युक्तिः अस्ति चेदेव, नाम किमपि कारणं भवेत् येन वयम् अनेकत्वम् इति स्वीकरणीयम्, अनेकत्वस्य स्वीकारः भवेत् तावत्पर्यन्तं वयम् एकत्वम् इति एव चिन्तनं अस्माकं चिन्तनं भवति. समीचीनं. इति अस्ति. अतः तत्र ईश्वर इति ईश्वरस्य विषये अनुमानेन तत्र तस्य ज्ञानं भवति कृत्वा इति कृत्वा ईश्वरः अपि एकः नित्यः अपि सः विलक्षणः भवेत् नाम
अस्माद्भिन्नः
भिन्नः भिन्नः इति कुल् कृत्वा तत्र सः सर्वज्ञः इति वयं साधितवन्तः. समीचीनं हा इति अस्ति. अस्तु तर्हि तत्र अपि तस्मिन् तत्र ज्ञान इच्छा कृति तत्र इति गुणाः नित्यः नित्यगुणाः परमात्मनि भवति इति वयं दृष्टवन्तः. अथ तत्र ज्ञानम् इति गुणः नाम बुद्धिः, इच्छा इति गुणः, अपि कृतिः इति गुणः, तयोः मध्ये नाम तयोः मध्ये नाम तत्र तेषु तत्र परस्परभेदः कः इति तत्र अग्रिमे पुटे वयं पठितवन्तः. तर्हि तत्र उदाहरणं स्वीकृत्य तत्र चन्द्रमती भगिनी नमस्कारः. तर्हि प्रेमलता भगिनी तत्र किञ्चित् वदति वा तत्र ज्ञानम् अपि तत्र इच्छा तयोः मध्ये कः भेदः इति?
ज्ञानम् इच्छा कृतिः एतेषु मध्ये
केवलं तत्र ज्ञानम् अपि इच्छा ज्ञानमपि इच्छा इति स्वीकृत्य तयोः मध्ये भेदः वदतु.
प्रथमतः किमपि वस्तु किमपि विषयः वयं द्रष्टुं शक्नुमः तत् तत्र विषयज्ञानं भवति. विषयस्य ज्ञानं भवति. तत् तत् परं मनसि इच्छा भवति तत् दृष्टुं. ज्ञानं प्रथमतः भवति विषयस्य, परमेव तस्य तस्मिन् इच्छा भवति.
तदनन्तरम् इच्छा भवति. समीचीनं. तर्हि तत्र उदाहरणं तत्र ग्रामान्तरं गन्तुम् उत्सुकः कोऽपि अस्ति इति कृत्वा वयं पठितवन्तः तत्र. सः प्रथमतया किं कस्य ज्ञानं प्राप्नोति?
ग्रामगमने इच्छा, ग्रामगमनम् इति तस्य प्रथम
न तद् तत् तत् त्यजामः. सः ग्रामः ग्रामं गन्तुम् उत्सुकः अस्ति इदानीं. तत्र लोकयाने सः अस्ति इदानीं.
वातायनतः किमपि विषयस्य ज्ञानं पुष्प
वृक्षाणां
एतद् दृष्ट्वा तस्मिन् इच्छा भवति.
इच्छा नास्ति. तदा केवलं ज्ञानं खलु नाम सः वृक्षान् पश्यति.
तस्य ज्ञानं भवति प्रथमतः.
तदा इच्छा अस्ति वा तस्मिन् आत्मनि?
तस्मिन् समये
इच्छा नास्ति. वृक्षाणां कृते इच्छा अस्ति वा?
वृक्षाणां कृते इच्छा तदनन्तरं भवति.
यदा सः तत्र वातायनात् पश्यति तत्र वृक्षाणां कृते
तस्मिन् समये इच्छा नास्ति.
हा केवलं ज्ञानमस्ति.
ज्ञानमेव
नाम वृक्षविषयकज्ञानम्
ज्ञानमस्ति.
किन्तु तत्र इच्छा नास्ति तस्मिन् समये. अस्तु समीचीनं. धन्यवादः भगिनि. अस्तु वेमला भगिनि प्रश्नः.
आं महोदय, ईश्वरः कः इति वयं न जानीमः. केवलम् अनुमानेन तस्य अस्तित्वं प्रतिपादयितुं शक्नुमः. तर्हि तस्मिन्नपि इच्छा अस्ति इति कथं वक्तुं शक्यते?
अग्रे आगच्छति भगिनि, अग्रे आगच्छति. किन्तु समीचीनमेव नाम तत्र सरलरूपेण नाम तत्र यद्यत् कार्यं वयं कुर्मः तेषु तत्र तस्य ज्ञानम्, ईश्वरस्य ज्ञानम्, ईश्वरस्य इच्छा, ईश्वरस्य प्रयत्नः अपि भवेत्. नो चेत् वयं तत्र सर्वं कार्यं न कर्तुं शक्नुमः इति एकविधचिन्तनम् अपि भवेत् खलु. अतः तत्र किन्तु समीचीनप्रश्नः. तत्र तस्य सर्वज्ञः इति तु अस्ति खलु नाम तत्र. किन्तु इच्छा, ज्ञानं, कृतिः तस्मिन् अस्ति इति किञ्चित् अग्रे तस्मिन् विषये आगच्छति.
केवलं ऊहां कर्तुं शक्नुमः इति.
किन्तु उत्तमप्रश्नः उत्तमप्रश्नः अग्रे उत्तरं भवति
महोदय धन्यवादः
अस्तु इदानीं तर्हि तत्र अस्मिन् समये तत्र यः ग्रामं गन्तुम् उत्सुकः अस्ति सः वृक्षान् पश्यति तस्मिन् समये केवलं वृक्षाणां ज्ञानमस्ति किन्तु वृक्षाणां कृते तस्मिन् इच्छा नास्ति अस्तु अग्रे तर्हि तत्र शुभदा भगिनी तत्र इच्छा कदा भवति अपि इच्छा नाम किम्
अस्तु इच्छा प्रथमं तु नास्ति न आसीत् परन्तु अधुना यदा सः एव मनुष्यः यदा उद्यानं गच्छति तत्र सः वृक्षान् अपि च लताः पश्यति तदा इदं सर्वं मम भवतु इति एका इच्छा तस्मिन् मनसि उत्पद्यते प्रथमं तु यानात् बहिः यदा यः पश्यति तत्र तु इच्छा न आसीत् परन्तु यदा सः विहारार्थम् उद्यानं गच्छति तादृशम् एव वृक्षाः अपि च लताः तत्र पश्यति चेत् तदा सः तस्मिन् मनसि इच्छा उत्पद्यते यत् तान् वृक्षान् अपि मम पार्श्वे भवन्तु इति तस्य
मनसि मम पार्श्वे भवन्तु इति समीचीनम् अतः तत्र इदानीं तस्मिन् आत्मनि तत्र इच्छा इति
गुणः भवति
अस्ति समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र योगेन्द्रमहोदय इदानीं तत्र अग्रे तत्र कृतिः तत्र
कृतिः प्रयत्नः यदा सः उद्याने गच्छति सः पश्यति तदनन्तरं तस्य मनसि इच्छाः आत्मनि इच्छाः भवति इदं मम भवतु परन्तु इदानीमपि तस्य प्रयत्नः नास्ति तस्य इच्छा एव अस्ति तदनन्तरं सः आपणं गच्छति तदनन्तरं सा क्रिया अपि च तस्य हस्ते अपि क्रिया हस्तेन सह स्यूतं स्यूतातः रूप्यकाणि नीत्वा सः क्रेतुम् इच्छति तत् एव प्रयत्नः
नाम तत्र यः क्रिया भवति तस्य कारणं नाम तत्र तस्य कारणम् अस्ति तत्र प्रयत्नः इति गुणः तस्मिन् आत्मनि प्रयत्नः इति गुणः अस्ति येन सा क्रिया भवति नाम साक्षात् क्रिया नाम सः चिन्तयति अहं क्रेतुम् इच्छामि इति अस्तु तर्हि क्रेतुम् इच्छामि चेत् किमपि कर्तव्यमस्ति इति कृत्वा तदा तस्य हस्तः सर्वं तत्र चलनं करोति अतः तत्र तस्मिन् समये तस्मिन् आत्मनि तत्र प्रयत्नः इति
न करोति
इति गुणः वर्तते प्रयत्नः इति गुणः वर्तते शरीरे क्रिया इति भवति आत्मनि प्रयत्नः इति अस्ति यस्य प्रेरणया शरीरे क्रिया भवति हस्तः चलति सर्वं चलति तदा अतः तत्र इदानीं तत्र कृतिः अस्ति नाम प्रयत्नः इति गुणः अस्ति एषः गुणः पूर्वं नासीत् यदा इच्छा आसीत् तस्मिन् समये केवलम् इच्छा आसीत् किन्तु प्रयत्नः नासीत् अपि तस्मात् प्राक् केवलं ज्ञानम् आसीत् अतः तत्र क्रमः अस्ति नाम प्रथमतया ज्ञानं तदनन्तरम् इच्छा तदनन्तरं कृतिः इति अतः तत्र सोपानं त्रयम् अस्ति तत्र क्रमशः एते गुणाः तत्र उत्पद्यन् तत्र मनसि भवन्ति आत्मनि भवन्ति इति अस्ति समीचीनं महोदय अस्तु तर्हि अतः तत्र वयम् एतावत् तत्र ज्ञानम् अपि इच्छा अपि कृतिः इति तयोः मध्ये परस्परभेदः कः इति ज्ञातवन्तः इदानीं तत्र अग्रे तत्र अस्ति तत्र चेष्टा अपि स्पन्द इति तर्हि तत्र चेष्टा अपि स्पन्द साक्षात् शरीरक्रिया भवति किन्तु तयोः मध्ये भेदः वर्तते. कः भेदः इति अद्य पश्यामः. अपि अग्रे तत्र आत्मन् तत्र परमात्मनः विषये अपि किञ्चित् भवति. अस्तु तर्हि अग्रे सरामः. तर्हि तर्हि तत्र सुधा भगिनी आरम्भं करोति वा?
आं महोदय. चेष्टास्पन्दनयोः स्पन्दयोः भेदकथनम् अत्र परः अयं विशेषः. निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कम्पनं वयम् अनुभवामः. तत्र न किञ्चित् ज्ञातं, न किञ्चित् अभिलाषितं, नापि
अभिलाषितं
नापि प्रयत्नं, तथापि प्रयत्नं तथापि हस्ते कम्पः दृश्यते. एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना विलक्षणा. तत्र मालती, लता, ज्ञाता, अभिलषिता तां क्रेतुं प्रयत्नं, ततः हस्ते क्रिया उत्पन्ना. अत्र यदा हस्तः गगने उन्नीतश्चेत् तत्र कम्पम् अनुभूयमानः. तत्र अत्र किमपि ज्ञानं नास्ति.
ईषत् कम्पं नाम किञ्चित् किञ्चिदेव किञ्चित्
कम्पम् अनुभूयमानः. तत्र तु तस्य ज्ञानं नास्ति, अपि च तस्य इच्छा अपि
नास्ति. न ज्ञानं नास्ति इति न, तत्र न तत्र कम्पं भवति इति तत्र न किञ्चित् ज्ञातं. तत्र कम्पम् इति साक्षात् क्रिया अस्ति खलु, शरीरे क्रिया अस्ति, कम्पनक्रिया अस्ति. किन्तु तस्मात् प्राक् तत्र किञ्चित् न ज्ञातं.
अपि च तत्र इच्छा अपि नास्ति, प्रयत्नमपि नास्ति.
प्रयत्नः अपि नासीत्, हा नाम कृतिः अपि नासीत्. नाम ज्ञानं तत्र यः क्रमः वयं पूर्वं क्रमः अस्ति इति वयं पूर्वं पठितवन्तः, तादृशः क्रमः अत्र न वर्तते. हा नाम तत्र ईषत् कम्पं यः हस्ते भवति सः कम्पः तत्र तस्मात् प्राक् कम्पं यत् वर्तते तस्मात् प्राक् तत्र ज्ञानम् अपि इच्छा अपि प्रयत्नः इति क्रमः नास्ति तत्र. तर्हि तथापि
अत्र हस्ते कम्पः दृश्यते, यतोहि ज्ञानं नास्ति, इच्छा नास्ति, प्रयत्नः नास्ति चेदपि क्रिया वर्तते अत्र.
हा नाम यथा वयं पूर्वं तत्र वृक्षस्य ज्ञानं सः प्राप्तवान्, तदनन्तरं वृक्षस्य विषये इच्छा प्राप्तवान्, तदनन्तरं वृक्षस्य विषये तत्र प्रयत्नः तत्र क्रेतुम् इच्छा आसीत्, प्रयत्नः क्रेतुं प्रयत्नः कृतवान्. तादृशी तत्र स्थितिः अत्र नास्ति.
अत्र एतादृशी क्रिया अस्माकं शरीरे वा अथवा पुष्पवाटिकायां यत् सः सञ्चिकायां हस्तं चलित्वा धनार्थं धनार्थं हस्तः चलितवान् अत्रापि क्रिया उत्पन्ना, परन्तु तत्र तद् भिन्ना अस्ति इति.
क्रिया भिन्ना अस्ति. नाम एतादृशी क्रिया, एतादृशी क्रिया नाम कीदृशी क्रिया? कम्पनक्रिया.
क्रिया वा तत्र
कम्पनक्रिया हस्ते वा शरीरे वा? एतावत् तत्र किमस्ति? एतादृशी क्रिया, क्रिया कीदृशी? कम्पनक्रिया. कम्पनक्रिया कुत्र जायमाना अस्ति?
हस्ते वा शरीरे वा जायमाना अस्ति,
हस्ते वा अथवा शरीरे वा जायमाना अस्ति इति एकविधक्रिया कम्पनक्रिया। सा क्रिया कीदृशी अस्ति? पुष्पवाटिकायां
हस्ते या क्रिया उत्पन्ना ततः भिन्ना अस्ति,
ततः भिन्ना अस्ति, समीचीनं। नाम प्रथमविधक्रिया एतावत् अस्ति, द्वितीयविधक्रिया एषा अस्ति, खलु? हा, पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना, सा क्रिया प्रथमक्रियायाः भिन्ना अस्ति, विलक्षणा अस्ति, नाम भेदः वर्तते, समाना नास्ति। अग्रे तत्र
यथा मालती लता एतत् क्रेतुम् इष्टवान्, तत्र प्रथमतया ज्ञानं लब्धवान्, अपर अनन्तरम् इच्छा अपि आसीत्, तां क्रेतुमपि प्रयत्नः कृतः, अतः एतद् हस्ते या क्रिया अभवत् तद् भिन्ना अस्ति इति।
भिन्ना अस्ति, समीचीनं। हा, तत्र मालती लता ज्ञाता, ज्ञाता इति तत्र कर्मणि प्रयोगः, का ज्ञाता? लता ज्ञाता, अस्माभिः लता ज्ञाता, अस्माभिः लता अभिलषिता, अपि अस्माभिः तत्र लतां क्रेतुं प्रयत्नं जाता, अतः तत्र हस्ते क्रिया उत्पन्ना आसीत्, अतः तत्र क्रमः वर्तते, नाम लथाया तत्र मालती लता इति तस्मिन् सन्दर्भे क्रमः वर्तते, अतः क्रियायाः पूर्वम्, अतः तत्र सा क्रिया भिन्ना अस्ति, विलक्षणा अस्ति, समीचीनं भगिनि। हा, हा, योगेन्द्रमहोदय प्रश्नः।
आं महोदय, निराशितः हस्तः गगने उन्नीतः चेत् इत्युक्ते किमपि प्रयोजनं विना या क्रिया भवति सा
न न केवलं महोदय तत्र केवलं भवान् तत्र हस्तम् उन्नयति चेत्
तत्र कोऽपि प्रयोजनं नास्ति, परन्तु या क्रिया पुष्पवाटिकां या सञ्चिकायां भवति हस्ते तत्र तु प्रयोजनम् अस्ति, क्रेतुं वा इदं मम भवतु इति।
सत्यं सत्यं अपि अत्र भवान् तत्र सत्यं महोदय, अपि यदा भवान् तत्र हस्तं हस्तस्य उन्नयनं करोति तत्र हस्ते क्रिया भवतु इति किमपि इच्छा नास्ति खलु?
हस्ते कोऽपि प्रयोजनं नास्ति सः तु,
किन्तु किन्तु तत्र क्रिया साक्षात् भवति खलु, नाम तत्र
क्रिया साक्षात् भवति,
हा, स्वतः भवति, अतः तत्र सा भिन्ना क्रिया अस्ति। अत्र वाटिकायां तत्र ज्ञानम् अपि एषः क्रमः वर्तते, अतः तत्र क्रिया क्रिययोः मध्ये भेदः वर्तते खलु? अस्तु,
धन्यवादः।
हा, समीचीनं महोदय। अस्तु, अग्रे इदानीं तत्र तर्हि अग्रे विमला भगिनी अग्रे पठति वा अतः आत्मनीति?
अस्तु, अतः आत्मनिज्ञानम् इच्छा यत्नः एतेषां त्रयाणाम् असत्त्वे या हस्ते शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्प इति वा उच्यते। ज्ञानादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते सा एव चेष्टा इति शास्त्रे प्रसिद्धा। यत् इष्टं पुष्पादि तदवाप्तुं महोदय किञ्चित् बहु करणीयं, यत् इष्टं पुष्पादि तदवाप्तुं यच्चनिष्टं कण्टकादि तद् निवारयितुं शरीरे जायमाना क्रिया एव चेष्टा इति शरीरक्रिययोः भेदः दर्शितः। क्रमशः अतः आत्मनि ज्ञानम् इच्छा यत्नः एतेषां त्रयाणाम् असत्त्वे या हस्ते शरीरे वा क्रिया उत्पद्यते या क्रिया हस्ते शरीरे वा उत्पद्यते सः स्पन्दः कम्पयति वा उच्यते स्पन्दः अपि च चेष्टा एतयोः मध्ये कः भेदः इति दीयते यदि इच्छा ज्ञान यत्नेन विना किमपि क्रिया उत्पद्यते सः अस्माकं शरीरे शरीरस्य कस्मिंश्चित् अवयवे या क्रिया उत्पद्यते सः स्पन्दः सा क्रिया स्पन्दः वा कम्पः इति उच्यते तर्हि ज्ञानादीनां ज्ञान अपि इच्छा तस्य पश्चात् क्रिया उत्पद्यते सा एव चेष्टा इति शास्त्रे
ज्ञानम् इच्छा यत्नः अपि
यत्नः प्रयत्नः आम्
नाम तत्र
क्रिया तु क्रिया इत्युक्ते प्रयत्नः खलु
न प्रयत्नः इति आत्मनः गुणः यस्य प्रेरणेन क्रिया उत्पद्यते
ज्ञान
केवलम् इच्छा अस्ति किन्तु तत्र इच्छा अस्ति किन्तु तत्र किमपि न भवति अतः तत्र किञ्चित् अधिकम् अपेक्षितं येन तत्र साक्षात् क्रिया भवति
आम् आं महोदय ज्ञान इच्छा यत्नः भवेत् तदा एव क्रिया उत्पद्यते तदा क्रिया उत्पद्यते सा क्रिया चेष्टा इति उच्यते यत् उदाहरणार्थं यदि अहं पुष्पाणि इच्छामः तत् अवाप्तुं किञ्चित् हस्तम् उन्नीय पुष्पान् स्वीकुर्मः तत् क्रिया चेष्टा इति उच्यते यदि कोऽपि अस्मासु कोऽपि कापि इच्छा या कोऽपि प्रयत्नः नास्ति एवमेव शरीरस्य कोऽपि भागः कार्यं करोति तदा तत् चेष्टा इति तत् स्पन्दः इति उच्यते तत्
स्पन्दः इति उच्यते समीचीनम् अग्रे तत्र इदानीं तत्र इष्टं पुष्पादि तदवाप्तुं तत्र चेष्टा इति अपि तत्र अग्रे अग्रिम उदाहरणं तत्र किमस्ति चेष्टायाः द्वितीय उदाहरणं तत्र
शरीरक्रियोः भेदः इति तदेव खलु महोदय
समीचीनं भगिनि किन्तु अन्तिम
पुष्पादि अवाप्तुं या तु कण्टकानि तद् निवारयितुं शरीरे या क्रिया उत्पद्यते सा एव चेष्टा इति उच्यते
नाम प्रथम अस्ति अवाप्तुं नाम पुष्पादि अवाप्तुं पुष्पम् अवाप्तुं चेष्टा इति क्रिया भवति अपि द्वितीयं किमस्ति
द्वितीयं
निवारितं किम् अस्ति तत्र एतत् पदं तत्र
चेष्टा
न
कण्टकादिकं
पुष्पादि तव तद् अवाप्तुं
पुष्पम् अवाप्तुं
यत् च अनिष्टं यत् च अनिष्टं कण्टकादि
यच्च अनिष्टं यथा कण्टकादि
नाम कण्टके किमपि अनिष्टम् अस्ति तं निवारयितुं
शरीरे
जायमाना क्रिया या भवति सा अपि चेष्टा अतः तत्र अवाप्तुम् अपि निवारयितुम्
अस्तु महोदय
द्वयमपि तत्र चेष्टा इति भवति
न श्रूयते महोदय
किं भगिनि न श्रूयते वा
अद्य श्रूयते अद्य श्रूयते
नाम इष्टस्य तत्र इष्टं पुष्पम् अवाप्तुं प्राप्तुम् अपि यत् अनिष्टमस्ति
तस्य
निवारयितुमपि या क्रिया भवति अस्मासु सा क्रिया चेष्टा
तत्र ज्ञान इच्छा यत्नः
तस्मात् प्राक् वर्तते अस्तु समीचीनं अग्रे योगेन्द्रमहोदय पुनः प्रश्नः वा
न महोदय क्षम्यताम्
आचार्य तत्र स्पन्दः कम्पः मध्ये विसर्गः किमर्थं नास्ति विसर्गस्य लोपः वा इति अस्ति
समीचीनं तथैव अस्ति अस्तु अग्रे नीता भगिनी अग्रे
सविषयक पदार्थगणनं ज्ञानादीनाम् अस्ति अपरः विशेषः एते सर्वेपि सविषयकाः विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति घटनिष्ठविषयतानिरूपकं ज्ञानं पटनिष्ठविषयतानिरूपिका इच्छा मठनिष्ठविषयतानिरूपिका कृतिः इति शक्नुमः वक्तुम् ज्ञानादीनाम् अस्ति अपरः विशेषः
ज्ञानादीनाम् इत्युक्ते किम्
इत्युक्ते तत्र ज्ञानः ज्ञानमस्ति इच्छा प्रयत्नः
समीचीनं त्रयाणाम्
अस्ति अपरः विशेषः
अन्यः
विशेषः वर्तते एते सर्वेपि सविषयकाः विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति एते सर्वे
अत्र विशेषः कः त्रयाणां विशेषः कः एते सर्वे अपि
विषयकाः
सविषयकाः
सविषयकाः
नाम तत्र ज्ञानम् अयं घटः इति ज्ञानं विषयकं ज्ञानं खलु अतः तत्र विषयकम् अयं घटः इति ज्ञानं विषयकं ज्ञानमस्ति तथैव तत्र इच्छा अपि प्रयत्नः अपि तत्र विषयक विषयकः भवन्ति इति उक्तमस्ति तत्र अग्रे तत्र विषयता रूपां
दर्शिताम् विषयतारूपां दर्शितां तत्र सम्बन्ध विषयसम्बन्धविषये अस्ति वा
हा नाम यथा वयं दृष्टवन्तः तत्र पुटसङ्ख्या तत्र त्रयस्त्रिंशत् मध्ये तत्र अस्ति खलु तत्र ज्ञानम् इति तत्र किं भवति अर्चिम् इत्युक्ते तत्र प्रायशः अर्चिम् इत्युक्ते किं तत्र टार्च् इति मन्ये खलु तत्र करदीपेन तत्र किं भवति विषयतारूपां विषयतारूपाम् अर्चिं
पदार्थे प्रक्षिपन्ति
हा नाम अर्चि नाम करदीपरूपेण नाम प्रकाशः पदार्थे प्रक्षिपन्ति नाम विषयता एव तत्र प्रकाशः भवति इति अतः नाम तत्र सर्वे सविषयकाः विषयकाः नाम विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति अतः तत्र कीदृशव्यवहारः भवति तर्हि तत्र घटनिष्ठविषयतानिरूपकं
ज्ञानं पटनिष्ठविषयतानिरूपिका इच्छा मठ इत्युक्ते तत्र
मठः नाम तत्र शङ्करमठः अस्ति इति
आश्रमः मठनिष्ठविषयतानिरूपिका कृतिः इति वक्तुं शक्नुमः
नाम तत्र ज्ञानं घटनिष्ठविषयतानिरूपकं ज्ञानम् इत्युक्ते तत्र घटे विषयता अस्ति तया विषयतया तत्र निरूपिता तत्र विषयिता ज्ञाने अस्ति तथैव पटे विषयता अस्ति
विषयता अस्ति
इच्छायाम्
इच्छायाः निरूपिका
हा इच्छायां विषयिता अस्ति अतः तत्र
इच्छायां विषयता अस्ति
विषयिता अस्ति अतः तत्र अतः इच्छा विषयता निरूपिका भवति
अनन्तरं मठे कृति अस्ति
मठः अपि कृतिः तयोः मध्ये अपि सम्बन्धः भवति मठे किमस्ति विषयता अस्ति
मठे विषयता अस्ति तत् कृत्याः निरूपिका विषयता इति
तत्र कृत्यां कृत्यां तत्र विषयिता अस्ति
विषयिता कृत्याम् अस्ति कृत्यः निरूपिका विषयता मठनिष्ठा अस्ति इति
हा तत्र परस्पर निरूप निरूप्य निरूपकभावः वर्तते समीचीनं हा नाम घटस्य ज्ञानम् अस्ति तदनन्तरं घटस्य कृते इच्छा अस्ति चेत् तत्र घटनिष्ठविषयता निरूपिका इच्छा तदनन्तरं घटस्य प्राप्तिः भवेत् इति प्रयत्नः भवति चेत् तत्र घटनिष्ठविषयता निरूपिका कृतिः तदा भवति तर्हि तत्र क्रमशः यद् क्रमः पूर्वं दर्शितः आसीत् तस्मिन् क्रमे तत्र ये ये पदार्थाः नाम विषयः भवन्ति तत्र तादृश तत्र निरूपकम् अथवा निरूपिका ज्ञानम् इच्छा कृतिः इत्यादयः भवन्ति अतः तत्र ज्ञानम् इच्छा कृतिः सर्वे सविषयकाः नाम कृतिः अस्ति चेत् वयं प्रष्टुं शक्नुमः विषयः कः इति अस्याः कृतेः विषयः कः नाम अस्य ज्ञानस्य विषयः कः इति यादृशं प्रश्न यादृशः प्रश्नः भवति तथैव अत्रापि तत्र कृतिः किन्तु अथवा इच्छा नाम तत्र इच्छा अस्ति चेत् नाम कस्य कृते इच्छा इति प्रश्नः भवति खलु अतः तत्र तत्र इच्छा सन्दर्भे अपि तत्र विषयः भवति अतः तत्र इच्छा अपि सविषयका भवति अस्तु समीचीनम् अस्तु तर्हि तत्र इदानीं तत्र अग्रे तत्र शोभा भगिनी अग्रे पठति वा
आं महोदय क्षमतां कुतः महोदय
दुर्यो इदानीं तत्र एवमेव
एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः दुर्योधनः भीमम् अद्विषत् इति विद्मः तत्र दुर्योधनस्य द्वेषः सविषयकः भीमविषयकः तथा च भीमनिष्ठविषयतानिरूपकः दुर्योधनस्य द्वेषः इति भवेत् एव तन्निरूपणम् तथा च ज्ञानेच्छाकृतिद्वेषाः सविषयकाः इतोपि एकः सविषयकपदार्थः अस्ति भावनाख्यसंस्कारः तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति वयमपि तस्य विशेषान् निरूपयिष्यामः तत्र पृष्ठसङ्ख्याम् अपि दत्तमस्ति अस्तु तर्हि तत्र एवमेव तत्र घटनिष्ठविषयतानिरूपकं ज्ञानं पटनिष्ठविषयतानिरूपका इच्छा मठनिष्ठविषयतानिरूपका कृतिः इति शक्नुमः वक्तुम् एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः तत्र यथा तत्र दुर्योधनः भीमम् अद्विषत् इति विद्मः इत्युक्ते अद्विषत् इत्युक्ते तत्र दुर्योधनः भीमं भीमं द्वेष तत्र भीमे तस्य द्वेषः अस्ति इति विद्म जानीमः तत्र दुर्योधनस्य द्वेषः सविषयकः भीमविषयकः तत्र इदानीं
किं महोदय अस्ति
द्वेषस्य विषयः इति सविषयकः अपि च भीमविषयकः
द्वेषः द्वेषस्य विषयः अस्ति इति कृत्वा द्वेषः सविषयकः अस्ति
सविषयकः अस्तु अस्तु द्वेषस्य विषय इदानीं तत्र
नाम यथा ज्ञानस्य विषयः वर्तते इति कृत्वा सविषयकं ज्ञानम् नाम सविषयकमिति विशेषणमस्ति ज्ञानस्य खलु
सविषयकमिति ज्ञानं
सविशेषणं नाम विषयेन सह अस्ति एतद् ज्ञानम् स विषयकं ज्ञानं तथैव द्वेषः अपि तत्र स विषयकः द्वेषः अस्ति यतोहि तत्र द्वेषस्य अपि विषयः वर्तते
इति स विषयकः इति वक्तुं शक्नुमः
इति हा इति सः अपि द्वेषः अपि स विषयकः अत्र विषयः अत्र कीदृशद्वेषः इत्युक्ते अत्र विषयः कः अस्य द्वेषस्य विषयः कः दुर्योधनस्य द्वेषस्य विषयः कः अस्ति
भीमः
भीमः अतः द्वेषः भीमविषयकः द्वेषः
अस्तु अपि च आत्मनिष्ठः अपि अस्ति
आत्मनिष्ठ इति महोदय द्वेषः आत्मनिष्ठः द्वेषः
तत्र आत्मनि गुणाः इति दृष्टवन्तः विशेषगुणाः इति तत्र द्वेषः इति पञ्चमः गुणः आसीत्
समीचीनं द्वेषः इति
गुणः आत्मनि विशेषगुणः अतः तत्र आत्मनिष्ठः द्वेषः अपि सविषयकः विषयः भीमे द्वेषः
यथा वयं ज्ञानं नाम बुद्धिः अपि आत्मनः गुणः इच्छापि आत्मनः गुणः कृतिः अपि आत्मनः गुणः तथैव द्वेषः अपि आत्मनः गुणः अस्ति सः
गुणः
स विषयकः अस्ति
तर्हि तत्र विषयक अपि च दुर्योधनः भीमम् अस्तु विषयकः तथा च भीमनिष्ठविषयतानिरूपकः दुर्योधनस्य द्वेषः इति भवेत् एव तन्निरूपणम् तत्र भीमविषयक द्वेषः इति वक्तुं शक्नुमः खलु महोदय इदानीं तत्र दुर्योधनस्य द्वेषः स्वविषयकः भीमः एव विषयः अतः तत्र भीमविषयकः
इति स्वविषयक नाम तत्र विषयः कोऽपि भवति अतः तत्र
तत्र यथा
स्वस्थाने भीम इति स्थापयामश्चेत् सः एव विषयः नाम भीमविषयः
तत्र यथा सचेतनः इति दृष्टवन्तः तथा सविषयकः अस्तु तथा च तत्र इदानीं भीमनिष्ठविषयतानिरूपकः दुर्योधनस्य द्वेषः इति भवेत् इति उक्तं
खलु इत्युक्ते भीमे किम् अस्ति
भीमे विषयता अस्ति अतः भीमनिष्ठविषयता तस्य निरूपकः दुर्योधनस्य द्वेषे विषयिता अस्ति निरूप्यनिरूपकभावः अस्ति
इति वक्तुं शक्नुमः
अतः तत्र भीमनिष्ठविषयतानिरूपकः दुर्योधननिष्ठविषयिता इति
अथवा साक्षात् दुर्योधनस्य द्वेषः भीमनिष्ठविषयतानिरूपकः इति
निरूपकः अस्तु
यथा वयं तत्र घटविषयकं ज्ञानम् अथवा घटविषयतानिरूपकं ज्ञानम् इति घटनिष्ठविषयतानिरूपकं ज्ञानम् इति नाम तत्र विषयता विषयिता सर्वम् अनुक्त्वा केवलं तत्र घटनिष्ठविषयतानिरूपकं
इति
अपि भीमनिष्ठविषयतानिरूपकः द्वेषः
भवति इति निरूपणं तथा च ज्ञानेच्छाकृतिद्वेषाः सविषयकाः तथा एव ज्ञानम् इच्छा कृति द्वेष एते सर्वे सविषयकाः भवन्ति अतः यथा इदानीं निरूपितं यथा विषयता विषयिता सम्बन्धेन निरूपणं भवति इति तत्र अपि च तत्र लाघत्वेन केवलं भीमनिष्ठविषयतानिरूपकः द्वेषः इति उक्तं एवमेव
सर्वे तत्र ज्ञानं सर्वे इच्छासन्दर्भे कृतिसन्दर्भे द्वेषसन्दर्भे सर्वत्र
निरूपणं
विषयः भवति अतः तत्र एते चत्वारः सविषयकाः
सविषयकाः इति वक्तुं शक्नुमः
इति अस्ति अग्रे
इति अस्ति इतोपि एकः सविषयकपदार्थः अस्ति भावनाख्यसंस्कारः तत्र भावनाख्यसंस्कारः अपि आत्मनि वर्तते इति दृष्ट्या गुणः अन्यतमः तस्य विषये अपि सविषयकपदार्थः तदपि सविषयकपदार्थः अस्ति तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति उपरिष्टात् सङ्ग्रहकारः
सङ्ग्रहकारः नाम तर्कसङ्ग्रहलेखकः सः क्रमेण सर्वं करोति खलु अतः तत्र तस्य वर्णनम् इदानीं न कृतवान् तत्र तर्कसङ्ग्रहे यः क्रमः तत्र वर्तते तेन क्रमेण किं भवति तत्र अग्रे भवति उपरिष्टात् नाम अग्रे अग्रे वर्णयिष्यति
ओके अस्तु अपि च वयमपि तस्य विशेषान् निरूपयिष्यामः इत्युक्ते तत्र अग्रे पृष्ठसङ्ख्या दत्तमस्ति 123 तत्र
कस्य विशेषान्
तत् इदानीं तत्र भावनाख्यसंस्कारः इति इत्यस्य विशेषान् तत्र निरूपयामः
अतः तत्र इदानीं केवलं तत्र ज्ञानं भवेत् केवलं तत्र ज्ञान इच्छा कृति द्वेषाः इति एव सविषयकाः नास्ति किन्तु
भावनाख्यसंस्कारः
अपि सः विषयकः अस्ति किन्तु तस्य विषये अग्रे चर्चा भवेत् इदानीं मास्तु इति अस्ति समीचीनम् अस्तु समीचीनं भगिनि अस्तु इदानीं तत्र शुभदा भगिनि तत्र एतावत् यत् अभवत् स्वशब्दैः किञ्चित् वदति वा वयं भगिनि
क्षम्यतां महोदय
विषयकाः सन्ति नाम तत्र ज्ञानम् इति सविषयकम् अस्ति वा
ज्ञानमिति सविषयकमस्ति
यतोहि ज्ञानमस्ति चेत् वयं प्रष्टुं शक्नुमः ज्ञानस्य विषयः कः खलु
विषयः कः सत्यम्
अयं घटः इति ज्ञानमस्ति चेत् तत्र विषयः कः
घटः इति ज्ञानस्य
घटः एव विषयः अतः तत्र एतद् ज्ञानं कीदृशम् इत्युक्ते घटविषयकं ज्ञानं
घटविषयकज्ञानम् इत्युक्ते घटनिष्ठविषयतानिरूपकं ज्ञानम्
इति भवति तथैव घटस्य कृते इच्छा भवति चेत् किं भवति तत्र इच्छायाः अपि विषयः अस्ति खलु तर्हि
सत्यं
तर्हि घटनिष्ठविषयतानिरूपिका इच्छा इति भवति खलु तर्हि
निरूपिका इच्छा इति
इदानीं तत्र घटस्य प्राप्तिः भवेत् इति
कृति
प्रयत्नः तत्र आत्मनि गुणः भवति तदा किं भवति
घटनिष्ठविषयतानिरूपकः प्रयत्नः इति
प्रयत्नः अथवा स्त्रीलिङ्गे तत्र कृतिः इति अस्ति चेत् निरूपिका कृतिः इति भवति इदानीं द्वेषः अपि तत्र सविषयकः अस्ति वा अथवा नास्ति वा
ज्ञानेच्छा कृतिद्वेषाः सविषयकाः आम्
द्वेषः अस्ति चेत् अपि तत्र विषयः अस्ति नास्ति वा अस्ति तत्र दुर्योधनस्य द्वेषः अस्ति तत्र विषयः कः
भीमः इति द्वेषस्य
विषयः भीमः तर्हि द्वेषः कीदृशः भीमविषयकः द्वेषः अस्ति
भीमविषयकः द्वेषः
अस्ति अतः तत्र भीमनिष्ठविषयतानिरूपकः द्वेषः दुर्योधने अस्ति इति भवति खलु
विषयतानिरूपकः द्वेषः दुर्योधने अस्ति सत्यं
दुर्योधने अस्ति खलु
सत्यम्
इदानीं समीचीनं तत्र अस्मिन् परिच्छेदे यत् यद् अस्ति
आं महोदय
अस्तु अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र हा धनश्री भगिनी अग्रे पठति वा नमस्कारः
नमस्कारः महोदय प्रकृतम् अनुसरामः पूर्वोक्तानुमानेन यः ईश्वरः सिद्ध्यति सः जन्य पृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति एतत् त्रितयम् आवश्यकम् अतः ईश्वरे अपि तत् स्वीक्रियते परन्तु न तत् अस्मदीय ज्ञानादिवत् अनित्यं किन्तु नित्यम् अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः तथा च सिद्धः ईश्वरः तस्य नित्यज्ञानेच्छाकृतयश्च तथा च सिद्धः ईश्वरः तस्य नित्यज्ञानेच्छाकृतयश्च विषये अस्मिन् नैयायिकैः बहुपराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम् अत्र ईश्वरः पूर्वम् अस्माभिः दृष्टं यत् ईश्वरः ईश्वरे अपि एते त्रयः गुणाः सन्ति परन्तु ते नित्याः सन्ति अस्मासु एते एव त्रयः गुणाः नाम आत्मनि एते त्रयः गुणाः अनित्याः
समीचीनं भगिनी समीचीनं किन्तु पङ्क्तिशः गच्छामः
आमां पूर्वोक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्य पृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छा कृतिः इति एतत् त्रितयम् आवश्यकम् नाम यदस्माभिः चिन्तितमासीत् घटः अस्ति घटस्य कोऽपि कुम्भकारः अस्ति तथैव पूर्ण यः पृथिव्यादि समस्तकार्यमस्ति तस्य अपि कोऽपि निर्माता भवेत् इति अस्माकम् अनुमानमासीत् अतः अनुमानेन ईश्वरः अस्माभिः सिद्ध्यते तत्र पुनः तस्य ज्ञान इच्छा कृतिः एतत् त्रितयम् आवश्यकं नाम कथं भवेत्
किमर्थं
तस्मात् पूर्वं कस्यचित् ज्ञानं तदनन्तरम् ईश्वरस्य इच्छा तदनन्तरमेव कृतिः भवेत् अतः त्रितयं नाम ज्ञानेच्छा कृतिः ईश्वरे अपि भवेत् इति अस्माकं पुनः अनुमानमेव
नाम तत्र किमर्थम् आवश्यकमस्ति तत्र तस्य ज्ञानं अपि इच्छा अपि कृतिः भवेत् इति
नाम तत् क्रमः अस्माभिः दृष्टः अस्ति
क्रमः क्रमः समीचीनं किन्तु किमर्थं तत्र ईश्वरे ज्ञानं भवेत् इच्छा भवेत् कृतिः भवेत् इति यथा तत्र पूर्वं तत्र भवती प्रायशः तस्मिन् समये नासीत् इति मन्ये तत्र विमला भगिनी पृष्टवती नाम कथं जानीमः तत्र ईश्वरे एते गुणाः सन्ति इति नाम ईश्वरः अस्ति इति कर्ता सर्वेषां कर्ता कोऽपि भवेत् विलक्षणः भवेत् इति अनुमानेन वयं जानीमः तत्र सः भिन्नः अस्ति अस्मादृशाः अस्मादृशः नास्ति इति जानीमः किन्तु तस्मिन् ईश्वरे ज्ञानम् अपि इच्छा कृतिः इति अपि तत्र किमर्थं भवेत् नाम अतः तत्र तत्र समस्तकार्यनिर्माता अस्ति इति खलु नाम जन्यपृथिव्यादि समस्तकार्यनिर्माता नाम यद्यत् कार्यमस्ति तस्य निर्माता सः एव इति चिन्ति इति अस्माकं चिन्तनम् अस्ति खलु तर्हि तत्र कुलालः अस्ति तत्र कुलालः घटस्य उत्पत्तिः घटं निर्माति इति चिन्तयामः, कदा वयं वदामः सः एव निर्माता इति? न न न हा तत् सत्यं, किन्तु तत्र तत्र शास्त्रे एका रीतिः वर्तते, नाम तत्र प्रथमतया कर्ता इति कस्य नामकरणं कर्ता इति भवितुम् अर्हति इति, नाम कर्ता इति कः भवेत्? यः यः कोऽपि तत्र घटस्य समीपे अस्ति चेत् कर्ता भवति वा? न खलु,
तस्य इच्छा भवेत्।
हा नाम प्रथमतया घटस्य निर्माणं कथं करणीयम् इति ज्ञानं भवेत् खलु, तस्य नो हौ घटस्य कृते ज्ञानं भवेत्, घटस्य निर्माणं कथं भवति इति तस्य ज्ञानं भवेत् प्रथमतया खलु। तदनन्तरं केवलं ज्ञानमस्ति चेत् तत्र घटस्य निर्माणं भवति वा? हा सः तस्मिन् इच्छा अपि भवेत्, अस्तु घटस्य निर्माणं करोमि इति इच्छा अपि भवेत् खलु। इदानीं तत्र घटस्य नोहाव् अस्ति, घटस्य कृते इच्छा अस्ति, अस्तु घटस्य निर्माणं कर्तुम् इच्छामि, किन्तु यत्नः नास्ति चेत् साक्षात् घटस्य निर्माणं यदा यदि न करोति चेत् किं सः कर्ता भवति वा? हा अतः तस्मिन् तत्र यत्नः अपि भवेत्, कृतिः अपि भवेत्, येन साक्षात् घटस्य निर्माणम् अभवत्। अतः इदानीं तर्हि तत्र घटस्य निर्माणात् प्राक् एषः क्रमः वर्तते, तत्र ज्ञानं भवेत्, इच्छा भवेत्, कृतिः अपि भवेत्, नो चेत् घटस्य निर्माणं न भवति। अतः तस्मिन् ईश्वरे तत्र ज्ञानमस्ति, इच्छा अस्ति, कृतिः अस्ति। अपि तत्र कस्य कस्य ज्ञानमस्ति चेत् सः एव समस्त तत्र जन्यपृथिव्याधीनां समस्तकार्यनिर्माता अस्ति इति कृत्वा तस्य सर्वज्ञानम् अस्ति खलु। अतः सः सर्वज्ञः इति वक्तुं शक्नुमः इति। अतः हा अतः तत्र एतत् सर्वं तत्र अस्ति, अतः तत्र ईश्वरे ज्ञानमस्ति, इच्छा अस्ति, कृतिः अपि अस्ति इति आवश्यकं भवति। अतः तत्र ईश्वरे अपि एतत् सर्वं स्वीक्रियते। हा इदानीम्
अस्माभिः यत् पूर्वं दृष्टं महोदय, चेष्टा अस्ति, अनन्तरं स्पन्दः अस्ति, तत्र स्पन्दरूपेण अपि न प्रकृतिः जनयितुं शक्नोति किं नाम, तत्र किमपि इच्छा नास्ति तर्हि अपि कार्यं तु भवितुं शक्नोति, तथैव अत्रापि न कल्पितुं शक्नुमः।
हा किन्तु कार्यं साक्षात् कार्यम् इति तत्र कारणं, तत्र कुलालः इति उदाहरणे तत्र एतत् सर्वम् अस्ति इति कृत्वा तत्र एषः क्रमः अत्र वर्तते इति चिन्तनं भगिनि। नाम घटस्य उत्पादने अपि पटस्य उत्पादने कुलालः अथवा तत्र तन्तुवायः, तत्र तस्य ज्ञानं भवेत्, इच्छा भवेत्, कृतिः अपि भवेत्, तदा एव तत्र निर्माणम्।
अहम् ईश्वरस्य विषये पृष्टं मया, ईश्वरः अपि तन्तुवायः अथवा कुलालः सदृशः एव भवेत् इति अस्माकं अनुमानमेव किल?
सत्यं सत्यं हा अतः तत्र
ईश्वरात् विहाय स्पन्दरूपेण सर्वं
भवितुमर्हति। हा तदपि भवितुमर्हति भगिनि। हा तत्र अतः अस्मिन् विषये अत एव तत्र अन्तिम वाक्यम् अत्र अस्ति, किन्तु तस्मात् प्राक् परन्तु
अतः ईश्वरेपि तत् स्वीक्रियते, तत् नाम एतत् त्रितयं स्वीक्रियते, परन्तु न तत् अस्मदीय ज्ञानादिवत् अनित्यम्। अत्र भेदः अस्ति, अस्मदीय यद् ज्ञानम् अस्ति तद् अनित्यमस्ति, ईश्वरे यद् ज्ञानमस्ति तद् नित्यमस्ति, किन्तु नित्यम् अनित्यत्वे आत्मनि ज्ञानानि स्वीकर्तव्यानि
अनन्तानि ज्ञानानि
स्वीकर्तव्यानि भवेयुः। अस्माकं यत् आत्मनियज्ञानम् अस्ति तत् अनित्य अनित्य अस्ति, अतः अनन्तानि स्वीकर्तव्यानि.
नाम तत्र ईश्वरे यद् ज्ञानम् अस्ति तद् नित्यम् इति स्वीकुर्मः, यतोहि अनित्यम् इति स्वीकुर्मश्चेत् ईश्वरस्य ज्ञानं किं भवति, तत्र
अनन्तानि ज्ञानानि
अनन्तानि ज्ञानानि भवेयुः इति तत्र गौरवम् इति स्वीकृत्य तत्र एकमेव ज्ञानं. किन्तु तद् तत्र अग्रे अस्माकं ज्ञानस्य विषये तत्र चर्चा भवति, तदा वयं वदामः तत्र तत्र एकस् तत्र एकः विषयः भवति ज्ञानस्य, अथवा तत्र समूहरूपज्ञानमपि भवति, तत्र समुच्छाय ज्ञानम् इति. अतः तत्र एतत् सर्वम् अग्रे आयाति, तादृशः ज्ञानं तत्र ईश्वरे यः ज्ञानं भवति तत्र नित्यमस्ति, किन्तु तत्र समुच्छाय समुच्छायात्मकं ज्ञानम् इति तत्र तस्य विवरणम् अग्रे भवति. अग्रे
तथा च सिद्धः ईश्वरः तस्य नित्यज्ञानेच्छा कृतयश्च. अतः यः ईश्वरः अस्माभिः सिद्धः सः नित्यज्ञानेच्छा कृति कृतयः इति त्रयात्मकः अस्ति, नाम नित्य तस्मिन् नित्यज्ञानेच्छा कृतयः सन्ति.
नाम तथा च नाम एतावत् यत् दत्तमस्ति तेन ईश्वरः अपि सिद्धः, अपि तस्य ईश्वरस्य नित्यज्ञानं नित्य इच्छा नित्या कृतिः अपि सिद्धः अस्ति. सिद्धः नाम साधितम् अस्ति.
विषये अस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम्. बहु पराक्रान्तम् उद्ग्रन्थे
नाम नैयायिकैः अस्मिन् विषये बहु पराक्रान्तं कृतमस्ति. नाम बहु किमपि तत्र चर्चितमस्ति अस्मिन् विषये, ईश्वर आत्म परात्मनः विषये बहु किमपि चर्चितमस्ति तत्र. एतत् किमर्थम्, एतत् किमर्थम्, एतत् कथमस्ति, किमर्थमस्ति, प्रश्नः अस्ति, सिद्धान्ति अस्ति अपि तत्र, विरोधी अपि अस्ति. अतः तत्र सर्वं दीर्घा चर्चा वर्तते. एतत् सर्वम् उद्ग्रन्थे द्रष्टव्यमस्ति.
उद्ग्रन्थे नाम प्रौढग्रन्थे.
प्रौढग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम् अस्ति. अत्र तत्र परिचयत्वेन एतत् सर्वं कृतमिति, अतः तत्र केवलं तत्र परिचयः अस्तु, तत्र एतत् एतत् सर्वं तत्र नैयायिकानां मतम् इति. तत्र अतः तत्र तस्य विषये आधिक्येन तत्र ज्ञातुम् उत्सुकः ये सन्ति तत्र ते प्रौढग्रन्थान् पठेयुः इति अस्ति. अस्तु, समीचीनम्. अतः तत्र क्रमः वर्तते अथवा क्रमः न वर्तते, चेष्टा इव अस्ति वा अथवा तत्र स्पन्दः इव अस्ति वा इति तस्मिन् विषये प्रायशः तत्र प्रौढग्रन्थेषु चर्चा भवति अस्ति इति मन्ये.
आचार्य, अहं चिन्तयामि अत्र लाघवार्थं स्वीकृतमस्ति कि ईश्वरः जन्यपृथ्व्यादि समस्तकार्यनिर्माता, यदि चेष्टया विना करोति तर्हि अन्यत् बहु किमपि वक्तव्यं भवति खलु, किमर्थं करोति निर्माणम् इति. तर्हि लाघवार्थं वयं स्वीकृतं वा स्वीकृतवन्तः वा,
तादृशचिन्तनमपि समीचीनमेव. नाम तत्र तस्मिन् मनसि आत्मनि एतत् सर्वम् अस्ति, इच्छा कृति सर्वम् अस्ति इति समीचीनं. लाघवार्थम् इति वक्तुं शक्नुमः इति मन्ये भगिनि. सत्यं, समीचीनमस्ति. अस्तु, अग्रे तत्र तर्हि एतावत्.
योगेन्द्रमहोदय अग्रे
महोदय अत्र अनन्तानि ज्ञानानि इत्युक्ते किं तत्र
नाम भगिनि नाम तत्र ज्ञानम् अस्माकं ज्ञानम् अनित्यमस्ति किन्तु परमात्मा तत्र नित्यः अस्ति यदि परमात्मनः ज्ञानम् अनित्यमिति स्वीकुर्मश्चेत् किन्तु नाम अस्माकं मनसि ज्ञानम् अनित्यमस्ति किन्तु कीद् अनित्यम् इति वदामः किन्तु प्रतिक्षणम् अस्माकम् आत्मनि ज्ञानं वर्तते एव किन्तु इदानीम् अस्मिन् क्षणे ज्ञानमस्ति तदनन्तरं तद् ज्ञानं नश्यति नूतनज्ञानम् उत्पद्यते तद् ज्ञानमपि नश्यति पुनः नूतनज्ञानम् उत्पद्यते पुनः नश्यति इति तत्र सर्वदा तत्र अभिनवं ज्ञानं भवति अस्माकम् आत्मनि तर्हि ज्ञानम् अनित्यम् इति स्वीकुर्मश्चेत् इति चिन्तनम् अस्माकं भवति चेत् परमात्मनः तदा अनन्तानि ज्ञानानि तस्मिन् अस्ति तस्मिन् सन्ति इति भवति खलु तर्हि
अस्तु
अतः तत्र अनेकानि अस्ति चेत् तद् गौरवम् इति अस्माकं नियमः नाम यावत्पर्यन्तम् अनुमानेन साधयामः एकमेव इति यावत्पर्यन्तं तेन दोषः न भवति तावत्पर्यन्तम् एकः अथवा एकमिति चिन्तनम् अतः अत्र एकम् इति एव स्वीकुर्मः अनेकः अनित्यम् इत्युक्ते अनित्यम् इति स्वीकुर्मश्चेत् अनेकानि ज्ञानानि भवन्ति इति कृत्वा अनित्यत्वं मास्तु अतः तस्य ज्ञानं नित्यम् इति चिन्तनम्
ओ अस्तु अतः
तत्र एकम् अपि नित्यं लाघवार्थं स्वीकृतं भवति
अस्तु
अस्तु समीचीनम् अस्तु अग्रे योगेन्द्रमहोदय
ईश्वरं निरूप्य जीवम् आह जीवः तु इति तु इति ईश्वरात् वैलक्षण्यज्ञापनाय इदं च बहुविधं प्रसिद्धम् यथा ईश्वरः एकः एव जीवाः तु शरीरभेदेन भिन्नाः शरीराणि अनन्तानि इति जीवाः अपि अनन्ताः ईश्वरः सर्वविषयकज्ञानवान् सर्वविषयक इच्छावान् सर्वकार्यविषयकृतिमान् जीवः तु किञ्चित् जानाति किञ्चिदेव इच्छति कृतिः अपि तस्य तत्तत् कार्यविषयविषयिणि एव भवति अत्र तु ईश्वर अपि च जीव मध्ये भेदः कः इति निरूपणमस्ति ईश्वर जीवाः ईश्वर तु एकः एव अस्ति
महोदय एकमेकं वाक्यं पठित्वा वदतु महोदय
ईश्वरं निरूप्य जीवम् आह जीवतु इति इदानीं जीवस्य निरूपणम् इति प्रायः वक्तुम् इच्छति
ईश्वरस्य निरूपणम् इदानीं कृतवन्तः जीवम् आह नाम जीवः जीव इत्युक्ते कः इति वदामः जीवात्मा इत्युक्ते कः इति वदामः जीवः तु इत्युक्ते किम् अस्ति तु इत्युक्ते
तु इति ईश्वरात् वैलक्षणज्ञापनाय
नाम जीवः तु इत्युक्ते जीवात्मा तु भिन्नः अस्ति परमात्मा भिन्नः जीवात्मा भिन्नः खलु अतः तु केवलं तत्र वैलक्षण्यं नाम भेदः वर्तते इति ज्ञापनाय
भेददर्शनाय इति उक्तमस्ति
भेददर्शनाय उक्तमस्ति समीचीनं अग्रे
इदं च बहुविधं प्रसिद्धम् इदं जीवं इदम् इत्युक्ते जीवं तु बहुविधं प्रसिद्धं यथा बहुविधम् इत्युक्ते किं वक्तुमिच्छति बहुविधं प्रसिद्धम्
इदं तु इदं च बहुविधं प्रसिद्धं नाम तत्र जीवः इति विषये तत्र जीवः अपि परमात्मा तयोः मध्ये भेदः वर्तते इति अनेकविधेन वयं जानीमः खलु तत्र वैलक्षण्यं ज्ञापनाय वैलक्षण्यं तु बहुविधं प्रसिद्धं नाम वैलक्षण्यम् एकविधे एव वैलक्षण्यं वर्तते इति नास्ति खलु
वेदज्ञापनाय
न वैलक्षण्यम् एकमेव वैलक्षण्यम् इति नास्ति खलु तत्र अनेकविधभेदाः
वर्तन्ते
खलु तत्र अतः तत्र इदं तु बहुविधं प्रसिद्धं नाम वैलक्षण्यं नाम जीवात्मा परमात्मा तयोः तयोः मध्ये वैलक्षण्यं यत् वर्तते तद् बहुविधम् अस्ति इति प्रसिद्धम्
अस्तु यथा ईश्वरः एकः एव जीवाः तु शरीरभेदेन भिन्नाः अतः ईश्वरः तु एकः एव अस्ति जीवाः अनेकाः शरीरभेदेन यानि शरीराणि सन्ति अनन्तानि तानि एव तान् एव जीवान् अपि अनन्ताः सन्ति
जीवाः अपि अनन्ताः एकशरीरे एकस्मिन् शरीरे एकः जीवात्मा
एकः जीवः वर्तते ईश्वरः सर्वविषयक ज्ञानवान् अस्ति अपि च सर्वविषयक इच्छावान् अस्ति अपि च सर्वकार्यविषयककृतिमानः अपि अस्ति अतः ईश्वरे तु ज्ञान इच्छा सर्वविषयक ज्ञान इच्छा कृतिः अस्ति परन्तु जीवे इति नास्ति जीवः तु किञ्चित् जीवे तु किञ्चित् ज्ञानमस्ति किञ्चित् इच्छा अस्ति अपि च किञ्चित् कृतिः अस्ति परन्तु सर्वविषयकृते नास्ति
अतः तत्र अनेकविध वैलक्षण्यम् अस्ति जीवात्मा परमात्मा तयोः मध्ये समीचीनं महोदय अतः तत्र ईश्वर सर्वविषयकज्ञानवान् सर्वविषयकज्ञानम् ईश्वरे अस्ति सर्वविषयक इच्छापि ईश्वरे
अस्ति सर्वविषयक कार्यविषयककृति प्रयत्नः अपि ईश्वरे अस्ति
ईश्वरे अस्ति किन्तु अस्मासु तु किञ्चित् ज्ञानं किञ्चित् इच्छा अपि कृतिः तत्र तत्तत् कार्यविशेषविषयिणी
एव
नाम किमपि कार्यमस्ति तादृशकार्यं प्रति विशेषविषयिणी नाम तत्र कृतिः कीदृशी विषयिणी नाम कृतेः विषयः अस्ति अतः एव तत्र कृतिः विषयिणी भवति नाम ये अयं
विषयान् ज्ञानम् अस्माकं मनसि अस्ति तेषाम् एव इच्छा अपि कृतिः अस्माकं मनसि आत्मनि भवति परन्तु तत्र तु बहूनि ज्ञानानि सन्ति अतः जीवः सर्वज्ञः नास्ति
इति समीचीनं महोदय अतः तत्र वैलक्षण्यम् एतावत् दर्शितम् अस्ति समीचीनं अस्तु समीचीनम् अपि तत्र अयं घटः इति ज्ञानं घटः इति विषयः ज्ञानस्य विषयः अस्ति इति कृत्वा ज्ञानं विषयी भवति तत्र इनि प्रत्ययः विषयिन् अतः तत्र विषयी भवति ज्ञानं विषयी भवति ह्रस्वैकारः यतोहि ज्ञानं नपुंसकलिङ्गपदं विषयी भवति अत्र कृतिः तत्र घटविषयककृतिः इति कृत्वा कृतेः विषयः भवति इति कृत्वा कृतिः विषयिणी भवति यतोहि कृतेः विषयः अस्ति अतः विषयिणी इनि प्रत्ययः स्त्रीलिङ्गे अस्तु तर्हि अग्रे तत्र
समीचीनं महोदय. अस्तु अग्रे तत्र एतावत् मृणालिनी भगिनी अग्रे पठति वा.
तत्र तथा खलु तत्र शरीरभेदेन तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं, तच्च एकैकस्य विभिन्नसुखदुःखादय दुःखाद्यनुरोग अनुरोध्यात् भिन्नम् दुःखादि अनुरोध्या दुःखादि
अनुरोधात्
अनुरोधात् भिन्नम्. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. एक एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्. अतः जीवात्मानः अनन्ताः तन्ना किमस्ति तत् तत् नानात्वम् उक्त्वा परिमाणमाह विभूरिति तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. आम् अत्र यथा ईश्वरः एकः एव, जीवास्तु शरीरभेदेन भिन्नाः. अतः शरीरभेदेन
नियमः आसीत् खलु, नाम यावत् यत्र युक्तिः नास्ति नाम कारणं नास्ति तत्र एकत्वम् इति चिन्तनं, किन्तु अत्र शरीराः भिन्नाः इति कृत्वा एकत्वम् इति समीचीनं न भवति, दोषः भवति इति कृत्वा जीवस्य विषये तत्र भेदः अङ्गीकर्तव्यः.
पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं. शरीरस्य निमित्तं किमर्थं तु पूर्वजन्मनि यत् पापं पुण्यं जनितमस्ति तस् आत्मना आप्तमस्ति तस्य भोगाय किल शरीरं. तच्च एकस्य
प्राप्तं नाम पुण्यं यत् प्राप्तम् आत्मना तस्य पापस्य भोगाय अथवा तस्य पुण्यस्य भोगाय किल शरीरम् अतः एव अस्ति खलु.
तच्च एकैकस्य विभिन्न सुखदुःखादि सुखदुःखादि अनुरोधात् भिन्नम् अत्र तत् इत्युक्तौ तच्च
शरीरं तत् शरीरं तु
तत् शरीरं तु एकैकस्य भिन्नसुखादि
विभिन्नसुखदुःखादि अनुरोधात् नाम प्रत्येकशरीरं तत्र भिन्नभिन्न सुखं दुःखम् इत्यादि अनुभवं भवति खलु, अतः तत्र भिन्नं भवति, एकमेव शरीरं नास्ति खलु. अतः उदाहरणं यदा खलु चैत्रः
सुखम् अनुभवति तदा मैत्रः दुःखम् अनुभवेत्.
तत्र चैत्रः मैत्रः केवलं तत्र नाम तत्र केवलम् उदाहरणार्थं खलु तत्र नामानि सन्ति. चैत्रः इति प्रसिद्धः न कोऽपि अस्ति चैत्रः, केवलं चैत्रः अस्ति इति. चैत्रः सुखी भवेत् तस्मिन्नेव समये मैत्रः दुःखी भवेत्, एतादृशी परिस्थितिः वयं पश्यामः खलु, तत्र तादृशी स्थितिः भवति लोके. एकः एव
यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्.
एकमेव आत्मा नाम एकमेव यदि जीवात्मा स्यात्
तदा एकस्मिन् क्षणे सुखं दुःखं एकः एव आत्मा न अनुभूयते इति.
एकस्मिन् समये तत्र सुखमपि अनुभूयते दुःखमपि अनुभूयते एतत् न भवति खलु. अतः तत्र भिन्नं भवेत् जीवात्मा अपि भिन्नं भवेत्.
जीवात्मनः अनन्ताः
नाम आत्मा 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 इति नपुंसकलिङ्गपदं खलु आत्मन् इति आत्मा आत्मानौ आत्मानः जीवात्मानः अनन्ताः
आत्मानः इति प्रथमा बहुवचनमस्ति आत्मा
समीचीनम् अग्रे
तन् तत् नानात्वम् उक्त्वा परिमाणमाह अतः आत्मानः तर्हि जीवात्मा अनन्ताः इति
उक्तं तर्हि तत् अनन्तात्म तत्र तत् अनन्तात् उक्तं खलु तत्र
आमां तर्हि जीवात्माः अनन्तः जीवात्मानः अनन्तः इति स्वीकृतमस्ति
तर्हि अनन्ताः इति जानीमः इति उक्तवन्तः इदानीम् अग्रे इति उक्त्वा अग्रे जीवात्मनः जीवात्मानः इति नास्ति किन्तु इदानीं जीवात्मनः षष्टि जीवात्मनः परिमाणः
परिमाणम् आह विभुरिति
वदामः वदामः आह नाम वदामः विभुः इति नाम तस्य परिमाणम् अस्ति विभु नाम जीवात्मा विभुद्रव्यम् अस्ति
जीवात्मा विभुद्रव्यं वा
विभुद्रव्यं यथा
परिभुद्रव्यम्
अस्ति तथैव
सर्वभूतद्रव्येषु व्याप्तिः
वर्तते संयोगः वर्तते सत्यं हा
संयोगः सर्वमूर्तद्रव्ययो
अग्रे एव दत्तमस्ति नाम विभु इत्युक्ते कः इति अग्रे एव दत्तमस्ति समीचीनं हा समीचीनं भगिनि हा अतः तत्र एतावत् तत्र जीवात्मानः अनन्ताः इति साधितः एतावत् तर्हि तत्र शरीरभेदेन जीवात्मानः अनन्ताः सन्ति इति साधितम् अस्ति एतावत् अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे चन्द्रमति भगिनि अग्रे
नमस्ते
नमस्कार नमस्कार भगिनि
जीवस्य अनित्यत्वे का क्षतिः सः का क्षीणं दोषः तादृशमेव जीवस्य अनित्यत्वे का क्षतिः हानिः सः जीवः विभुः सकलमूर्तसंयोगवान् किमिदं मूर्तं यस्मिन् क्रिया सम्भवति कस्मिन् क्रिया सम्भवति यत् क्वचित् नास्ति क्वचित् नास्ति
तावत्पर्यन्तं
सः जीवस्य अनित्यत्वे का हानिः इति उक्तमस्ति सः जीवः विभुः सकलमूर्तसंयोगवान्
विभुः नाम विभुः इत्युक्ते सकलमूर्तसंयोगवान्
सः जीवः उपरि उक्तमस्ति विभुः जीवात्मा अनन्ताः तद् विभुः इति अत्र उपरि दत्तं सः वदति सः जीवः विभुः सकलमूर्तसंयोगवान् विभुः
विभुः नाम विभुः इति पदस्य अर्थः अस्ति सकलमूर्तसंयोगवान् इति तर्हि मूर्तद्रव्यं किमिदं मूर्तद्रव्यं यस्मिन्
क्रिया इच्छा
क्रिया इच्छा न केवलम् इदानीं क्रिया नाम कर्म नाम क्रिया साक्षात् क्रिया सम्भवति यस्मिन् क्रिया भवति तदस्ति मूर्तद्रव्यं
किमिदं मूर्तम् अत्र मूर्तम् इत्युक्ते किम् कीदृशम् अस्ति किमिदं मूर्तम् अत्र
मूर्तद्रव्यं नाम किं
वदति यस्मिन् क्रिया सम्भवति मूर्तम् इत्युक्ते
यस्मिन् क्रिया सम्भवति
कस्मिन् क्रिया सम्भवति इति अन्यप्रश्नः कुत्र क्रिया सम्भवति यत् क्वचित् नास्ति
इति अस्ति यत् क्वचित् नास्ति तस्मिन्नेव क्रिया सम्भवति इति तत्र स्थगयामः समयः अपि जातः तर्हि एतस्य वाक्यस्य वाक्यात् अग्रिमवर्गे पठनं भवति अस्तु समीचीनं धन्यवादः भगिनि अस्तु तर्हि अतः तत्र अद्य बहु किमपि वयं पठितवन्तः समीचीनमस्ति अग्रे तत्र जीवस्य अनित्यत्वे किमर्थं जीवात्मा अपि नित्यः इति अग्रिमवर्गे पश्यामः तर्हि अस्तु तर्हि धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः तर्हि
धन्यवादः नमस्कारः
धन्यवादः नमस्कारः